ज्योतिषा बाधते तम निरूस्वसारमस्कृतोषसं दिव्यायते अपि दुहासते तम सानो यवयस्तेन मुर्मे अथान सुतरा भव उपमापेपि शत्तमः कृष्णं व्याक्तमस्थित उषरिणेव यातय उपते गायिव करं वृणीष्व इति ऋग्वेदोक्तं रात्रिसूक्तं समाप्तम्।